एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड नेपाल भारतयोर दीर्घकालिक विद्युत व्यापार संविधाया क्रियान्वयन महत्वपूर्ण उपलब्धि अधिगमसित इति विश्वास व्यनक्ति। हेटौडावर्तिन हेटौडा विद्युत संयोजन केन्द्रस्य उद्घाटन समारोहम पूर्वेद्यु सम्बोधयन् प्रधानमन्त्री प्रचण्ड भारत भ्रमणस्य क्रमे विहितया दीर्घकालिक विद्युत व्यापारस्य प्रारम्भिक सहमत्या तत्पश्चात विहितया अन्तिम संविधया च नेपाले विद्यमानाम् जल विद्युत सम्भावनाम् वर्धयितुम् आपणस्य सुनिश्चितता विहितास्ति इति प्रावोचत्। तदवसरे प्रधानमन्त्री प्रचण्ड नेपालाभ्यन्तरे व्ययीकृत्य अवशिष्टाया वर्षायामस्य आसन्न चत्वारिंशत् मेगावाट मिताया विद्युत बंगलादेशे निर्याताय पूर्वकार्यम् अन्तिमचरणे प्राप्तमस्ति इति असूचयत्। उद्घाटन समारोहे ऊर्जा जलस्रोत सिंचन मन्त्री शक्तिबहादुर बस्नेत नेपाले ऊर्जा क्षेत्रे नूतन क्रान्तेः प्रारम्भणम् सम्भूतमस्ति इति अगदत्। मन्त्री बस्नेत देशे अतिरिक्ताया अष्टाविंशति सहस्राणि पञ्च शतञ्चेति मेगावाच मिताया विद्युत उत्पादनस्य कार्ययोजनया सर्वकारः अग्रेवर्धितोऽस्ति उदयरयत। कार्यक्रमे नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशक कुलमान घिसिङ हेटौडा चतुर्शत केभी विद्युत संयोजन केन्द्रस्य निर्माण कार्यस्य सम्पादनेन सहैव नैज क्षेत्रस्यापि सहयोगेन जलविद्युत उत्पादनस्य क्षेत्रे उल्लेखनीया प्रगति सम्भूतास्ति इति अवोचत। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति आगामी दिनेष् दलाभ्यन्तरे प्रत्यक्ष निर्वाचन प्रणालीं क्रियान्वय मनोनयन प्रथा समाप्स्यते। अनिराशोभिः क्रान्तिकारी इत्याख्यस्य अखिल नेपाल राष्ट्रिय स्वतन्त्र विद्यार्थी संघटनस्य चतुर्थम् पूर्णोपवेशम् ह्यः काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री दलस्य अध्यक्षश्च प्रचण्ड दलस्य विधानाधिवेशनेन विहितस्य निर्णयस्य अनुसारेण दलस्य सर्वेष्वपि निकायेष् प्रत्यक्ष निर्वाचन प्रणाली एव प्रारप्स्यते इत्यभाषत। प्रधानमन्त्री प्रचण्ड अन्तर्राष्ट्रिय मञ्चेष् नेपालेन शक्तिशाली सन्देश प्रदत्तोऽस्ति इति अगदत्। प्रतिनिधि सभाया ह्यस्तनोपवेशे एतत् विक्रम वर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतेष् वन वातावरण पेयजल संचार सूचना प्रविधि संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयै सह सम्बद्धेष् विषयेष् विमृष्टम् वर्तते। विनियोजन विधेयक मातृत्व विहिते विमर्शने सांसदः आयव्ययकस्य विनियोजनम् प्रभावपूर्णम् विधातुम् सर्वकारस्य ध्यानाकर्षणम् कुर्वन्तः प्रादेशिकेभ्यः स्थानीयेभ्यश्च सर्वकारेभ्यः आनुकूल आयव्ययक व्यवस्थायै बलं दत्तवन्तः। सांसदः संघीय सर्वकारेण प्रदातव्यं समानीकरणानुदानं यथासमयं प्रदेयं समस्याः परिचित्य समाधानाय आयव्ययकेन ध्यानं देयं पूर्ववर्तिभिः सर्वकारैः विहितेभ्यः कार्येभ्यः नैरन्तर्यं देयं चेति उक्तवन्तः। तत्पूर्वं प्रतिनिधिसभायाः उपवेशस्य प्रारम्भे सांसदः अविरलाभिः वर्षाभिः सहैव आगता विपद ततः जातायाः क्षतेः न्यूनीकरणाय च सर्वकारेण प्रयासो विधेयचित्य इत्यादिषु विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। सांसदः विपदः समये महिला आधिक्येन पीडिताः भवन्तीति चर्चयन्तः महिलानां सुरक्षार्थं सर्वकारस्य ध्यानम् आकृष्टवन्तः। द्वादशोत्तरैकशततमे अन्तर्राष्ट्रिय श्रम सम्मेलने भागं ग्रहीतुं स्विजरल्याण्ड देशस्य जेनेभा नगरं सम्प्राप्तेन राष्ट्रपतिना रामचन्द्र पौडेलेन अद्यतः जर्मनी देशस्य औपचारिकं भ्रमणं विधीयमानं वर्तते। राष्ट्रपतिः पौडेलः जर्मनी देशस्य राष्ट्रपतेः फ्रैंक वाल्टर स्टीनमेयर इत्यस्य निमन्त्रणायां जर्मनी देशस्य भ्रमणं विदधानो वर्तते। राष्ट्रपतिना पौडेलेन परश्वः आषाढस्य तृतीये दिवसे जर्मनी देशस्य राष्ट्रपतिना सह औपचारिकी मेलवार्ता करिष्यते इति परराष्ट्र मन्त्रालयस्य प्रवक्ता अमृत बहादुर राई अज्ञापयत्। नेपाल जर्मनी देशयोः मध्ये अष्टपञ्चाशदुत्तरैकोनविंशति शततमस्य ख्रिष्टाब्दस्य अप्रैल मासस्य चतुर्थे दिवसे कूटनीतिक सम्बन्ध स्थापित आसीत्। नेपालाय जर्मनी देशेन कृषि नगरीय विकासस्य अवकर व्यवस्थापनस्य लघुद्योग विकासस्य विपन्नता निवारणस्य भौतिक पूर्वाधारस्य विद्युत प्रसारण मार्गस्य शिक्षायाः स्वास्थ्यस्य वातावरण संरक्षणस्य मानवीय सहायतायाश्च क्षेत्रेषु सहयोगः प्रदीयमानो वर्तते। उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन सह नेपाल भ्रमणे विद्यमानेन चीन देशीय जनराजनीतिक परामर्शदातृ सभायाः राष्ट्रिय समितेः उपाध्यक्षस्य वेटर इत्यस्य नेतृत्वस्य प्रतिनिधिमण्डलेन ह्यः मेलवार्ता विहिता अस्ति। लयनचौरवर्तिनी उपराष्ट्रपतेः कार्यालये ह्यः सम्भूते मेलने नेपाल चीन सम्बन्धस्य पारस्परिक सहयोगस्य व्यापारस्य व्यवसायस्य पर्यटनस्य च विषयेषु विमृष्टमस्ति। उपप्रधान गृहमन्त्री रवि लामिछाने कथयति यातायात व्यवस्थापन प्रहरी प्रशासनम् अतिरिक्तं प्रभावकारी विधातुम् नागरिक हि अनुभवनत्वेन सेवा प्रवाह प्रविधि मैत्री विधेयः। काष्ठमण्डप उपत्यका यातायात व्यवस्थापन प्रहरी कार्यालयस्य ह्यो निरीक्षणं विदधानो गृहमन्त्री लामिछाने विभिन्न समस्यासु अभावेषु च सत्स्वपि उत्कृष्ट कार्य सम्पादनं विदधते यातायात प्रहरिणे प्रविधेः उपयोगेन अतिरिक्त सहजता भवतीति अवदत्। सरे गृहमन्त्री लामिछाने प्रत्येकं प्रहरी कर्मचारिणा नागरिकै सह विधीयमाने व्यवहारे परिवर्तनम् आनेतुं स्वस्य कार्यप्रति उत्तरदायी भवितुं च निरदिशत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा संचार सूचना प्रविधिर विकासाय नेपाल भारतयोर्मध्ये उच्चस्तरीय सहकार्यं भविष्यति इति विश्वासं व्यनक्ति। नेपालस्य कृते भारतीय राजदूतेन नवीन श्रीवास्तवेन सह संचार सूचना प्रविधि मन्त्रालये ह्यः सम्पन्नाया मेलवार्ताया मन्त्री शर्मा भारते सम्प्रत्येव निर्मिताय नूतन सर्वकाराय वर्धापन सन्देशं ज्ञापयन्ति नेपाल भारतयोः सम्बन्ध नवीनोच्चतायां प्राप्नोतीति विश्वासम् अभिव्यनक्। नेपाल सर्वकारेण आगामिनः आर्थिक वर्षात् प्रारम्भणत्वेन सूचना प्रविधेः दशकम् प्रस्तावितमस्तीति ज्ञापयन्ती मन्त्री शर्मा स्वल्पकालेन एव सूचना प्रविधेः क्षेत्रे भारतेन विहितायाः प्रगतेः अभ्यासात् अनुभवाच्च नेपालोऽपि शिक्षितुम् इच्छतीति उदैरयत्। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला भाषते देशस्य आर्थिक विकासाय सामाजिक विकासाय च सर्वहि एकीभूय प्रवर्तनीयम्। ह्यः जनकपुर धामनी पत्रकारै सह भाषमाणः नेता डाक्टर कोइराला देश संकटपूर्ण अवस्थायामस्तीत्यतः पारस्परिक सहकारेण समन्वयेन च देशस्य समृद्धये सर्वहि प्रवर्तनीयमिति बलं प्रादात्। सर्वकारेण परश्वः आषाढस्य तृतीय दिवसे इस्लाम धर्मावलम्बिनां बकर ईद पर्वणः अवसरे सार्वजनिकावकाशस्य प्रदानाय निर्णीतमस्ति। गृहमन्त्रालयस्य प्रवक्त्रा नारायण प्रसाद भट्टराई इत्यनेन ह्यः प्रकाशितायां सूचनायां गत माघ मासस्य 29 दिवसे नेपाल राजपत्रे प्रकाशितायाः सूचनायाः अनुसारेण बकर ईद पर्वणः अवसरे परश्वः सार्वजनिकावकाशः प्रदत्तोस्ति। काष्ठमण्डप महानगरपालिकया ह्यः आगामिनः आर्थिक वर्षस्य कृते नीति कार्यक्रमाः प्रस्तुताः सन्ति। काष्ठमण्डप महानगरपालिकायाः ह्यः उपविष्टे नगरसभायाः पञ्चदशे अधिवेशने महानगरपालिकायाः आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमान् प्रस्तुवन् महानगरस्य प्रमुख बालेन्द्र शाह काष्ठमण्डप महानगरपालिकायां सामुदायिक विद्यालयेषु केन्द्रीय भोजनालयात् अल्पाहार वितरिष्यते इति अज्ञापयत्। नीति कार्यक्रमेषु क्रीडा पूर्व प्राथमिक स्तरादेव अनिवार्यं करिष्यते छात्रवृत्तेः वितरणम् एकद्वार प्रणालीतः करिष्यते महानगरं सुरक्षितं समावेशी सम्पन्नं च करिष्यते आर्थिक विकासस्य क्षेत्रे न्यूनतोऽपि 20 जनेभ्य प्रत्युपार्जनस्य प्रदातृभ्यो व्यवसायिभ्य आरम्भस्य वर्षत्रये व्यवसाय शत प्रतिशतं करे सौविध्यं प्रदास्यते चेत्यादि घोषणा विहितास्ति। इति समाचारः।